सर्वेभ्यो नमस्कारः. इदानीं वर्गम् आरम्भं कुर्मः. गतसप्ताहे वयं यतः ततः अपि तः पर्यन्तम् अपि च यदि तर्हि इति विषयस्य किञ्चित् अभ्यासं कृतवन्तः. तः पर्यन्तम् इति वयं समयविषये दृष्टवन्तः, यथा नारायणः षड्वादनतः नववादनपर्यन्तं योगासनं करोति, तादृशानि वाक्यानि वयं दृष्टवन्तः गतसप्ताहे. अपि वयं कदा आरभ्य, श्वः आरभ्य एतत् करोमि, एतत् न करोमि इति तदपि दृष्टवन्तः. यदा तदा अपि दृष्टवन्तः, यदा अहं तत्र गतवान् तदा सः पठति स्म इति तदपि दृष्टवन्तः. अत्र गृहपाठः, तत्र गृहपाठः आसीत्, तः पर्यन्तम् उपयुज्य पञ्चवाक्यानि लिखतु इति. तदनन्तरं यदा तदा उपयुज्य पञ्चवाक्यानि लिखतु इति. अपि यदा तदा अपि यदि तर्हि अयोः मध्ये भेदः अस्ति न वा इति विषये किञ्चित् चिन्तयतु इति गृहपाठः आसीत्. अस्तु, तः पर्यन्तम् उपयुज्य वाक्यानि कः वक्तुम् इच्छति?
नमस्ते, गीता.
गीता भगिनी नमस्कारः.
नमस्कारः.
नमस्ते महोदय, अहं वक्तुं शक्नोमि वा?
मेहल् महोदय, अस्तु वदतु महोदय. तः पर्यन्तं
प्रथमवाक्यम्, अहम् अष्टवादनतः सार्धपञ्चवादनपर्यन्तं कार्यालये अस्मि.
समीचीनं महोदय.
द्वितीयवाक्यं, मम माता प्रतिदिने नववादनतः सार्ध एकादशवादनपर्यन्तं भोजनं पचति. तृतीयवाक्यं, गोविन्दः प्रातःकाले षड्वादनतः सप्तवादनपर्यन्तं व्यायामं करोति. चतुर्थम्, अहं सायंकाले षड्वादनतः सार्धसप्तवादनपर्यन्तम् उद्याने क्रीडामि. पञ्चमं वाक्यं, वयं मङ्गलवासरे सार्ध अष्टवादनतः दशवादनपर्यन्तं संस्कृतं पठामः.
समीचीनं महोदय, समीचीनम्. अस्तु,
धन्यवादः.
अन्य कोऽपि वक्तुम् इच्छति वा?
अहं वदामि.
अस्तु,
अहं प्रतिदिने षड्वादनतः सप्तवादनपर्यन्तं संस्कृतं पठामि. प्रातःकाले, प्रतिदिने प्रातःकाले. अहं मम पतिः सह सप्तवादनतः अष्टवादनपर्यन्तं, नो, अहं मम पत्या सह, मम पत्या सह सप्तवादनतः अष्टवादनपर्यन्तं गीताभाष्यं शृणोमि.
तत्र
शृणुतः,
किन्तु पतिः इति शब्दः तत्र पतिः इकारान्तशब्दः एव खलु? किन्तु तत्र
प्रवेश बुक्
तत्र केवलं मम प्रश्नः अस्ति, विभक्ति कीदृशविभक्ति आवश्यकं तत्र?
तृतीया.
अस्तु, अतः तृतीया विभक्ति किम् अस्ति पतिः शब्दस्य?
पत्या. इकारान्तपुल्लिङ्ग पतिः शब्दः.
अस्तु,
पतिः पति पतयः, पतिं पति पतीन् पतीन् पत्या पतिभ्यां पतिभिः.
अस्तु, इदानीं तत् वाक्यं किम् अस्ति वदतु भगिनि.
अहं मम पतिः, अहं मम पत्या सह सप्तवादनतः अष्टवादनपर्यन्तं गीताभाष्यं शृणोमि. और् शृणुतः
शृणोमि अहं तेन सह
शृणुमः शृणुमः
शृणुमः न अहम् इति
शृणोमि
तावदेव तत्र क्रियापदं यत् वचनं पुरुषं तदेव कर्तृपदस्य खलु
मम दौहित्री सेप्टेम्बर् फस्ट् सेप्टेम्बर्
एकतः
चत्वारि पर्यन्तं जाह्नवी शिबिरम् आगतवती मम दौहित्री देन् रामः कृष्णेन सह प्रति सायङ्काले पञ्चवादनतः षड्वादनपर्यन्तं कन्दुकं क्रीडति
कन्दुकेन क्रीडति
बट् ऐ पु कृष्णेन नो
किन्तु क्रीडति इति तत् अकर्मकक्रियापदम् इति मन्ये रामः कृष्णेन सह क्रीडति किन्तु कन्दुकेन सह कन्दुकेन क्रीडति अथवा कन्दुकेन सह कन्दुकेन क्रीडति इति मन्ये भगिनि
कन्दुकेन सो तृतीया विभक्ति आमामां
किन्तु प्रथम अस्ति कर्तृपदसम्बन्ध अन्य अस्ति क्रियापदसम्बन्ध
ओके सो कन्दुकेन ओके रामः कृष्णेन सह प्रति सायङ्काले पञ्चवादनतः षड्वादनपर्यन्तं कन्दुकेन क्रीडति
यदि तत्र सुलभं भवति चेत् कन्दुकेन इति निष्कास्य अपि वक्तुं शक्नोति क्रीडति इति रामः कृष्णेन सह षड्वादनतः सप्तवादनपर्यन्तं क्रीडति तदपि समीचीनमेव अस्ति यदि इच्छति अस्तु अन्य कोऽपि वक्तुम् इच्छति वा तः पर्यन्तम् इति वाक्यानि
नमस्ते महोदय अहं वंशीसुधा अस्मि
वंशीसुधा नमस्कारः
गोविन्दः रामः च गोविन्दः रामश्च गोविन्दः रामः
वाक्यं वदतु एतत् अभ्यासपुस्तकमस्ति अतः यत् आवश्यकं तदेव वदतु किमर्थं क्लिष्टं कार्यं कर्तुम् इच्छति इदानीं नो
ओके गोविन्दः रामः च षड्वादनतः सप्तवादनपर्यन्तं प्रतिदिने योगासनं करोति कुरुतः
तदेव द्विवचनं अतः एव अहम् उक्तवान् सुलभं कार्यम् अस्ति किमर्थं क्लिष्टं कार्यं कर्तुम् इच्छति भवती इदानीम् एतत् केवलम् अभ्यासपुस्तकमस्ति एकवचनम् अथवा बहुवचनं
गोविन्दः रामः च योगासनं
गोविन्दः अथवा बहुवचनं स्वीकरोतु गोविन्दः रामः कृष्णः च इति
कुर्वन्ति
समीचीनं तावदेव एतत् अभ्यासपुस्तकमस्ति अतः अग्रे गत्वा द्विवचनमपि वयं कुर्मः इदानीं मास्तु तावदेव अस्तु समीचीनं वा अस्तु अस्तु भगिनि अस्तु वेणुगोपाल् महोदय भवान् वक्तुम् इच्छति वा
आं महोदय
अस्तु
वयं छात्राः सर्वे षड्वादनतः दशवादनपर्यन्तं मन्दिरं गच्छामः त्वं सपाद सप्तवादनतः अष्टवादनपर्यन्तं सपाद अस्तु धन्यवादः त्वं सपाद सप्तवादनतः अष्टवादनपर्यन्तं मम गृहं क्रीडार्थम् आगच्छसि.
क्रीडार्थं क्रीडार्थं वा?
अस्तु अस्तु, क्रीडार्थं क्रीडार्थं. जून् अष्टादशतः मार्च् एकविंशतिपर्यन्तं न्यूयार्क् नगरं गमिष्यामि. मम मातापितरौ मे दशतः जून् दशपर्यन्तम् अमेरिका आगच्छतः. अहं प्रतिदिनं पादोनसप्तवादनतः पञ्चवादनपर्यन्तं कार्यालये कार्यं करोमि.
समीचीनं महोदय, अस्तु अस्तु, धन्यवादः महोदय.
धन्यवादः.
तं पर्यन्तं द्विकाले अस्ति. कालः अथवा विस्तारः एव भवति. कालः अहं त्रीणि वाक्यानि रचितवती. बालकः त्रिवादनतः पञ्चवादनपर्यन्तं पठति. बालिका पञ्चवादनतः सप्तवादनपर्यन्तं क्रीडति. सार्ध एकवादनतः सार्धद्विवादनपर्यन्तम् अस्माकं भोजनविरामः. त्रीणि वाक्यानि कालः सूचयति. विस्तारः मम गृहतः मन्दिरपर्यन्तं भक्तजनाः सन्ति. विमानं चेन्नैनगरतः हैदराबाद् नगरपर्यन्तम् आगच्छति.
हा, समीचीनं समीचीनं भगिनि. हा, एतत् अभ्यासपुस्तके एतादृशानि उदाहरणानि न
किञ्चित् पठितवती.
समीचीनं भगिनि, बहु समीचीनम् अस्ति.
महोदय महोदय, भवतः स्वरः किञ्चित् भेदः सम्यक् एव नास्ति महोदय.
हा, अद्य अहम् एतत् हेड्फोन्स् उपयुज्य.
ओ ओ ओ, किञ्चित् स्वरः भेदः, स्वरः भेदः
अस्ति वा?
आम् आम् महोदय,
अहं चिन्तयामि
कः आगच्छति. भवान् एव अस्ति, निरञ्जन महोदय नास्ति.
किञ्चित्
धन्यवादः महोदय, धन्यवादः.
अस्तु, न धन्यवादः भगिनि. अस्तु, अन्य कोऽपि वक्तुम् इच्छति? नरेश् महोदय, वदतु महोदय.
एकादश अप्रेल् तः नवदश मै पर्यन्तं भारतदेशे मतदानं भविष्यति. सप्तचत्वारिंशत्तः चतुष्षष्टि पर्यन्तं जवाहरलाल नेहरू भारतदेशस्य प्रधानमन्त्री आसीत्. अप्रैल् दशतः अप्रैल् विंशति पर्यन्तं भवान् किं करिष्यति? नवम्बर्तः जनवरी पर्यन्तम् अहं भारते आसम्. प्रातः अष्टवादनतः नववादनं पर्यन्तं सः योगासनं करोति.
समीचीनं महोदय, समीचीनं महोदय, धन्यवादः. अस्तु, अन्य कोऽपि? अस्तु, एतत् यदा तदा उपयुज्य पञ्चवाक्यानि वक्तुमिच्छति वा?
सायकृष्णमहोदय,
अस्तु, वदतु महोदय.
ट्रै करोमि.
हा हा, प्रयत्नं करोतु, वयं सर्वे प्रयत्नमेव कुर्मः अत्र.
कार्यालये कार्यालये कर्मस् सार्थ्यः प्रातःकाले सप्तवादनतः सायङ्काले सप्तवादनपर्यन्तं कार्यं कुर्वन्ति. समीपस्थः रेल् मार्गे रात्रौ द्वादशवादनतः प्रातः त्रयोवादनपर्यन्तं रैल्यानं चालयितुं शब्दाः न शृणोमि.
तत्र वादन इति वयं कृतवन्तः महोदय, समयः कः इति कुत्र अस्ति तत्र? हा, पेज् 17 इति. तत्र तत्र त्रिवादनम् इति,
ओ त्रिवादनम्,
त्रिवादनम् इति रूपम् अस्ति महोदय.
अहं फेब्रुवरि अष्टदशतः मार्च् द्वादशपर्यन्तं केलिफोर्नियाराज्ये तिष्ठितवान्
तिष्ठवान् इति. समीचीनमस्ति महोदय, धन्यवादः, धन्यवादः. अस्तु, अतः यदा तदा उपयुज्य कोऽपि वक्तुम् इच्छति वा? गीताभगिनी एकनिमिषः, अन्य कोऽपि यः न उक्तवान् अथवा उक्तवती?
अहं वदामि महोदय. यदा पठामि तदा परीक्षायाम् उत्तीर्णः भवामि. यदा पचति तदा खादति. यदा सः खादति तदा सः विवक्षा न भवति.
तदा
सः विवक्षा न भवति. यदा सूर्योदयः भवति तदा अहं सूर्यनमस्कारः करोमि.
सूर्यनमस्कारम् इति
नमस्कारं करोमि,
कर्मपदं.
यदा कार्याने इन्धनं नास्ति तदा अहं कार्यानं न चालयामि. पञ्चवाक्यं
समीचीनमस्ति भगिनि, धन्यवादः, धन्यवादः भगिनि. अस्तु, अन्य कोऽपि?
नरेश
महोदय, एकनिमिषः महोदय, नरेश महोदय अपि गीता भगिनी एकनिमिषः. केवलम् अहं चिन्तयामि यदि यः न उक्तवान् अथवा न उक्तवती, यदि ते वक्तुम् इच्छन्ति चेत्, कोऽपि वक्तुम् इच्छति वा? अस्तु अस्तु, अतः गीता भगिनी भवती वदतु, तदनन्तरं नरेश महोदय भवान् वदतु.
महोदय, यदा चोराः बहु धनं चोरयन्ति तदा ते बहु सन्तुष्टाः भवन्ति. यदा वसन्तः आगच्छति तदा वासन्ताः कूजन्ति.
अस्तु भगिनि.
यदा सूर्योदयात् प्राक् उत्तिष्ठामि तदा बहु कार्यं पूरयितुं शक्नोमि. यदा सूर्यास्तः भवति तदा मशकाः गृहे अन्तः आगच्छन्ति. मस्किटोस्. यदा जनाः यमनियमान् युक्तायुक्तान् अनुसरन्ति तदा धर्मः प्रतिष्ठापयति.
प्रथमभागं पुनः एकवारं भगिनि.
यदा जनाः यमनियमान् युक्तायुक्तान् च युक्तायुक्तान् च अनुसरन्ति तदा धर्मः प्रतिष्ठापयति.
अस्तु भगिनि, समीचीनम्.
यदा देशे नीतिः भवति तदा जनाः मङ्गलं प्राप्नुवन्ति.
तदा जनाः
मङ्गलं प्राप्नुवन्ति.
प्राप्नुवन्ति, हा प्राप्नुवन्ति, हा बहुवचनम्. अस्तु,
प्राप्नुवन्ति,
प्राप्नुवन्ति बहुवचनम्. अस्तु, समीचीनं भगिनि.
थेङ्क् यू.
धन्यवादः. नरेश् महोदय वदतु.
यदा रमेशः अत्र आगतवान् तदा आवां संस्कृतं पठितवन्तौ. यदा भवान् तत्र गच्छति तदा भवतः मित्रं मिलतु. यदा वयम् आगरां गतवन्तः तदा ताजमहलं दृष्टवान्. यदा वयं मिलामः तदा वयं शिक्षणं कृते वार्तां करिष्यामः.
द्वितीयभागं महोदय पुनः. तदा
तदा वयं शिक्षणं कृते वार्तां करिष्यामः.
तत्र शिक्षणस्य कृते इति षष्टिविभक्तिरूपम् अपेक्षितमस्ति महोदय.
शिक्षणस्य,
शिक्षणस्य कृते इति.
यदा भवान् कोलम्बस् नगरम् आगमिष्यति तदा मां सूचयतु. पञ्च अस्ति.
अस्तु, समीचीनं महोदय, धन्यवादः. अस्तु, तत्र यदा तदा अपि यदि तर्हि तत्र बहु समीचीनम् इति मन्ये, किन्तु समानं नास्ति. अत्र अन्यविषयः अपि अहं वक्तुम् इष्टवान्. तत्र यदा तदा तत्र बहु प्रसिद्धम् उदाहरणम् अस्ति भगवद्गीतायाः, यदा यदा हि धर्मस्य. तत् सर्वे जानीयुः. यदि तर्हि तस्य विषये अहम् एतत् उदाहरणं दृष्टवान्. तद् एकवारं पठामि. मम एतेषां प्रश्नानाम् उत्तरं यदि भवान् जानन् अपि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत् अचिरात् एव. पुनरेकवारं पठामि. मम एतेषां प्रश्नानाम् उत्तरं यदि भवान् जानन् अपि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत् अचिरात् एव. कोऽपि जानाति वा एतत् कुत्र, कुतः एतत् उदाहरणं स्वीकृतम् इति? समीचीनं, समीचीनं, समीचीनं. तत्रापि यदि तर्हि इति भवति. समीचीनं. अस्तु, तत्र किञ्चित् एव चिन्तयामः. कोऽपि वक्तुम् इच्छति वा यदि तर्हि अपि यदा तदा तयोः मध्ये भेदः अस्ति न वा, अथवा भेदः अस्ति चेत् उदाहरणरीत्या किञ्चित् वक्तुम् इच्छति चेत् वदन्तु.
यदा तदा समय यदि तर्हि स्थिति अस्ति.
तत्तु, तत् समीचीनमस्ति. यदि तर्हि तत्र स्थितिः अथवा कारणम् अपि भवति तत्र. यदि तर्हि अस्तु, तत् एक अंशः अस्ति, समीचीनम्.
यदि तर्हि केवलं वर्तमाने भविष्यत्काले भवति, यदा तदा भूतकाले अपि वयं उपयोगं कर्तुं शक्नुमः. सत्यं वा?
तत् अहं न जाने महोदय, किमर्थं
यदि तर्हि कण्डीशन्स् आक्चुलि.
अस्तु, यदि एतद् भवति तर्हि एतदपि भवति.
भूतकाले, भूतकाले वयं उपयुज्यं न शक्नुमः.
यदि एतद् तर्हि एतत् अपि अभवत् इति
अभविष्यत्. ओके,
तदपि यदि वृष्टिः आसीत् यदि यदि मेघाः आसन् तर्हि वृष्टिः अभवत् इति तर्हि वक्तुं शक्नुमः इति मन्ये महोदय.
यदि तर्हि आङ्ग्लभाषे इफ् देन् अस्ति खलु. यदा यदा तदा आङ्ग्लभाषे वेन् देन् अस्ति खलु महोदय.
यदि तर्हि कार्यकारणसम्बन्ध अस्ति महोदय.
तत्र कारण अपि तदनन्तरं कार्यं
यदा तदा कार्यकारणसम्बन्धः नास्ति परन्तु कालं द्विकालं भवति. प्रथमः वाक्यं कालं भेदः अस्ति, द्वितीयवाक्यः कालः भेदः अस्ति अहं चिन्तयामि मन्ये.
तदपि किञ्चित् समीचीनमेव अस्ति भगिनि. तत्र तदपि वक्तुं शक्नुमः इति मन्ये.
तदेव
अस्तु, समीचीनमस्ति. केवलं सर्वे किञ्चित् चिन्तयन्तु इति तदेव. अन्य कोऽपि वक्तुम् इच्छति वा तत्र? कोऽपि वक्तुम् इच्छति वा तत्र? रमाबाई भगिनी, नमस्कारः. नमस्कारः भगिनी. तत्र केवलं यदा तदापि यदि तर्हि तस्मिन् विषये किञ्चित् चिन्तयन्तु इति आसीत् गृहपाठः आसीत्, अतः पृष्टवान्. भवती किमपि वक्तुम् इच्छति वा यदा तदा अथवा यदि तर्हि तयोः मध्ये भेदः अस्ति न वा कोऽपि अंशः यत् मनसि आगच्छति?
महोदय, अहं प्रयत्नं करोमि.
वदतु भगिनि.
यदा अहं भारतदेशं गमिष्यामि तदा तीर्थयात्रां करिष्यामि. यदि अहं इण्डिया भारतदेशं यदि तर्हि उपयुज्य महोदय, यदि अहम् इण्डिया भारतदेशं गमिष्यामि तर्हि तीर्थयात्रां कर्तुं शक्नोमि?
अस्तु, समीचीनं भगिनि. तत्र रूपभेदः, यदा तदा अपि यदि तर्हि उपयुज्य वक्तुं शक्नुमः अत्र, किन्तु रूपभेदः भवति इति भवती वक्तुम् इच्छति वा?
आम् महोदय.
तदपि समीचीनमस्ति भगिनि. अत्र यदा तदा वाक्यं यदि तर्हि उपयुज्य वक्तुं शक्नुमः तत्र, समीचीनमस्ति भगिनि. उत्तम अंशः तदपि.
महोदय, अहं चिन्तयामि यदा तदा कर्ता द्विकर्ता अस्ति परन्तु यदि तर्हि कर्ता एकमेव भवति महोदय.
कर्ता इत्युक्ते कीदृशं?
सब्जेक्ट्. यदि अहं गच्छामि तर्हि भवान् आगच्छति. यदि अहम् इत्युक्ते सब्जेक्ट् इस् ओन्लि वन्.
यदा यदा तदा मध्ये अथवा यदि तर्हि मध्ये?
आं महोदय, यदि वृष्टिः भवति तर्हि न भवति, अहं कार्यालयं गच्छामि. द्विवाक्येन
तत्र कर्तृपदभेदः अस्ति.
यदि तर्हि कर्तृपदम् एकमेव अस्ति. यदि
किमर्थम्
अहं चिन्तयामि,
आवश्यकं न? यदि जनाः सतां भविष्यन्ति तर्हि भारतं रामराज्यं भविष्यति.
सम्यक् एव महोदय, अहं चिन्तयामि. न, अहं न जानामि.
किन्तु किन्तु अंशः समीचीनमेव अस्ति भगिनि, किन्तु उत्तरमपि समीचीनमेव. तत्र एकमेव कर्तृपदम् उपयुज्य भागद्वयमपि कर्तुं शक्नुमः, किन्तु तत्र कर्म कर्तृपदं प्रथमभागे एकं कर्मपदं कर्तृपदम् उपयुज्य अन्यभागे अन्यकर्तृपदम् उपयुज्य अपि वक्तुं शक्नुमः, तदपि वाक्यानि कर्तुं शक्नुमः. किन्तु यद् अंशः तत् अत्र प्रश्नः सम्यक् न वा इति तद् प्रश्नः नास्ति, किन्तु किं किं द्रष्टव्यं, कान् कान् अंशान् वयं दृष्ट्वा भेदः अन्वेषणं कर्तुं शक्नुमः इति, तदेव चिन्तनस्य आशा आसीत्. तत्र सर्वान् अंशान् सम्यक् इति तादृशः नास्ति, किन्तु के अंशाः द्रष्टव्याः इति तादृश तावदेव. अस्तु, सर्वेपि धन्यवादः, चिन्तितवन्तः अपि किञ्चित् उक्तवन्तः, धन्यवादः. अस्तु, इदानीं किञ्चित् अग्रे गच्छामः. तत्र अभ्यासपुस्तके अग्रिमपुटे तत्र वयं पेज् 49 तत्र स्मः. तत्र विषयः अस्ति सङ्ख्याविषयं, तत्र सङ्ख्याविषयः तत्र किम् अस्ति चेत् 1, 2, 3, 4 तेषां लिङ्गभेदः अस्ति, तदनन्तरं लिङ्गभेदः नास्ति इति. अत्र 1, 2, 3, 4, 5 तत्र स्त्रीलिङ्गरूपं किं, पुल्लिङ्गरूपं किं, नपुंसकरूपं किम् इति, लिङ्गरूपं किम् इति तत्र दत्तमस्ति. एतावत् कः न, रमाबाय् भगिनी भवती तत्र पठति वा 18.1?
कुत्र महोदय, सम्यक् न श्रूयते
महोदय. 49 भगिनि,
पेज् 49
हा, तत्र 1, 2, 3, 4 इति 18.1 इति सेक्षन् नम्बर्.
1, 2, 3, 4 इत्येतादृशां लिङ्गभेदः अस्ति, तदनन्तरं लिङ्गभेदः नास्ति. एकः बालकः, एका बालिका, एकं फलम्.
हा, समीचीनं भगिनि, अस्तु. हा, भानुचेतनी महोदय अग्रे, बालक इति
बालकद्वयं, बालिकाद्वयं, फलद्वयम्.
अस्तु, नरेश महोदय
तत्र भेदः नास्ति वा?
तत्र तत्र द्वयम् इति रूपं स्वीकृतमस्ति महोदय.
अन्यं वदतु महोदय.
रूपभेदः तु पुल्लिङ्गे द्वौ इति अस्ति, द्वौ बालकौ. अत्र अभ्यासपुस्तकम् इति खलु, अत्र द्विवचनं तद् न कर्तुम् इच्छन्ति तत्र, अतः द्वे इति.
संस्कृतभारत्यां द्वयं द्वयम् इत्येव वदति.
तत्र प्रथमस्तरे एतदेव कुर्मः, किन्तु द्वे शब्दस्य रूपं एकः एका एकं यथा अस्ति, तथा द्वे शब्दस्य रूपम् एतदस्ति, द्वौ इति पुल्लिङ्गे,
द्वौ बालकौ. आम्,
द्वौ बालकौ, अपि द्वे बालिके,
द्वे बालिके,
अपि द्वे द्वे वने, वने. अत्र पुल्लिङ्गे द्वौ इति अस्ति, किन्तु स्त्रीलिङ्गे नपुंसकलिङ्गे च द्वे इति रूपम् अस्ति. यदि द्वयम् इति न उपयोगं कर्तुम् इच्छामः, अत्र द्वौ इति पुल्लिङ्गे, द्वे द्वे च स्त्रीलिङ्गे नपुंसकलिङ्गे.
महोदय,
इदानीं तदेव बालक बालिका फलम् इति इदानीं तादृशरूपं वदतु महोदय.
त्रीणि
वन् चेतनी महोदय तदेव बालकद्वयम् इति इदानीं द्वौ बालकौ इति तादृशरूपम् एकवारं वदतु वनचेतनी महोदय
महोदय अहं चिन्तयामि कोऽपि अन्यः वदति त्रयः बालकाः
न न त्रयेन त्रयेन भवान् उक्तवान् तदेव द्वयं निष्कास्य द्वौ बालकौ इति वदतु
द्वौ बालकौ द्वे बालिके द्वे फले
हा तावदेव समीचीनं महोदय धन्यवादः हा अस्तु नरेश् महोदय इदानीं त्रीणि इति
त्रीणि त्रयः बालकाः तिस्र बालिकाः त्रीणि फलानि
हा समीचीनं धन्यवादः महोदय मेहुल् महोदय चत्वारः इति
आम् महोदय चत्वारः बालकाः चतस्रः बालिकाः चत्वारि फलानि
हा धन्यवादः महोदय गीता भगिनी पञ्च
पञ्च पञ्च बालकाः पञ्चबालिकाः पञ्चफलानि
हा अस्तु धन्यवादः भगिनी हा तत्र पञ्च षट् सप्त अष्ट नव दश तत्र सर्वत्र भेदः नास्ति केवलम् एकं द्वे त्रीणि चत्वारि पर्यन्तमेव भेदः अस्ति अस्तु अग्रिमपुटे पुटं पश्यामः तत्र वेणुगोपाल् महोदय
एकः प्रश्नः अस्ति महोदय द फस्ट् लैन् एकं द्वे त्रीणि चत्वारि इत्येतासाम् इति इत्येतासां स्त्रीलिङ्ग षष्टिविभक्ति बहुवचनं स्त्रीलिङ्गम्
अस्तु
प्रश्नः एकं एकम् इस् नपुंसकलिङ्ग द्वे इस् द्वे इस् नपुंसकलिङ्ग स्त्रीलिङ्ग त्रीणि इस् नपुंसक चत्वारि इस् आल्सो नपुंसक बट् वै यु हाव् इत्येतासां
समीचीनं सङ्ख्या हा समीचीनं कः वदति तत्र
सङ्ख्या स्त्रीलिङ्गपदं किल
आम् समीचीनं तत्र एकं द्वे त्रीणि चत्वारि तु सन्ति किन्तु इत्येतासां सङ्ख्या इति स्त्रीलिङ्गपदम् अस्ति
स्त्रीलिङ्गपदं
तस्य षष्टिविभक्ति किम् अस्ति सङ्ख्या
धन्यवादः भगिनी धन्यवादः
अतः एव तत्र स्त्रीलिङ्गे अस्ति अस्तु इदानीं पञ्च तदनन्तरं लिङ्गभेदः नास्ति अस्तु हा वेणुगोपाल् महोदय अग्रिमपुटे प्रथमपङ्क्ति
अस्तु कति सन्ति इति लिखतु युतकम् एकं युतकं चतुरः शुनकाः
तत्र चत्वारः इति
चत्वारि चत्वारः शुनकाः
चत्वारः शुनकाः
तिस्रः पिपीलिकाः
तिस्रः पिपीलिकाः समीचीनं महोदय अस्तु अग्रे हर्षिता भगिनी द्वितीयपङ्क्तिः
पञ्चगजाः सिंहद्वयं एकः धेनुः
हा समीचीनं भगिनि अस्तु रघुपति आचार्य महोदय तृतीय
महोदय धेनु स्त्रीलिङ्ग स्त्रीलिङ्ग अस्ति वा धेनु
हा धेनुः धेनुः एकवारं महोदय
धेनुः स्त्रीलिङ्ग
अत्र धेनुः आमामामाम् उकारान्तशब्दः हा तत्तु समीचीनमेव अस्ति महोदय अस्तु अस्तु हा धेनुः उकारान्त हा प्रायशः अस्ति महोदय. समीचीनमेव. हा धेनं धेनुः हा स्त्रीलिङ्गशब्दः इति मन्ये महोदय. अतः तत्र एका धेनुः इति भवति. हा अस्तु समीचीनं महोदय. इदानीं तृतीयपङ्क्ति
द्वे मक्षिके एकः गर्दभः त्रयः व्याघ्राः.
हा समीचीनम् अस्तु. हा रमाभगिनी पठितवती अस्तु. वंशी सुधा भगिनी पठति वा अग्रिमम्?
आं महोदय. षड् अर्धोरुकम् अर्धोरुकम्
किन्तु षड्
अर्धोरुकं षड् एव अस्ति न
कानि कानि कानि
बहुवचनं बहुवचनरूपं
बहुवचनरूपं पञ्च न षड् अर्धोरुकानि
इदानीं समीचीनं.
षड् मालाः द्वौ ऊरुकं द्वे
ऊरुकानि वनानि
आमां नपुंसकलिङ्गमेव
द्वे ऊरुक अथवा ऊरुकद्वयम्
आम् आं महोदय.
ऊरुकं तावदेव भगिनि तावदेव अस्तु. शोभा भगिनी भवती पठितुम् इच्छति वा?
आं महोदय.
अग्रिमं गृहगोधिका
गृहगोधिका षड् गृहगोधिकाः षड् चोलः षड् चोलाः स्त्रीलिङ्गं स्त्रीलिङ्गमस्ति चोलाः
चोलः
पुल्लिङ्गं. नो ऐ जस्ट् कन्फ्यूस् मी महोदय चोलः पदं पुल्लिङ्गः अस्ति. पञ्च शाटिकाः.
समीचीनं भगिनि समीचीनं भगिनि धन्यवादः अस्तु. मेहुल् महोदय अग्रिमं वदति वा?
चत्वारि पादांशुकानि सप्तशिरस्त्रं सप्तशिरस्त्राणि पञ्च अन्तर्युतकानि.
समीचीनं. इदानीम् एतत् कुर्मः यत् पुटसङ्ख्या षट् तत्र नित्योपयोगानि वस्तूनि इति अस्ति 1.3 सेक्षन् पुटसङ्ख्या षट् तत्र एतत् कुर्मः तिस्रः त्रयः इति स्वीकुर्मः त्रयः तिस्रः त्रीणि इति अस्तु. सर्वे त्रीणि इति चिन्तयामः अस्तु. अस्तु तत्र कः वदति? अस्तु हर्षिता भगिनी वदति वा तत्र?
आम् महोदय.
प्रथमपङ्क्तिः
त्रयः दर्पणाः त्रयः मञ्चाः त्रयः विद्युद्दीपाः त्रयः करदीपाः.
समीचीनं भगिनि अस्तु. गीता भगिनि अग्रिमम् अग्रिमपङ्क्ति
त्रयः मण्डप त्रयः ओन्लि त्री
आमामां
त्रयः त्रयः मण्डपाः त्रीणि पादत्राणानि त्रीणि कङ्कतानि, त्रीणि भावचित्राणि.
हा समीचीनम्. अस्तु, हा सा कृष्णमहोदय वक्तुम् इच्छति वा, अग्रिमं कर्तुम् इच्छति वा?
I don't know what to say.
अस्तु अस्तु अस्तु, चिन्ता मास्तु. वंशीसुत भगिनी अग्रिमम्.
आं महोदय, त्रीणि सीवनयन्त्राणि, त्रीणि वातायनानि, तिस्रः जवनिकाः, तिस्रः यानपेटिकाः.
हा समीचीनं भगिनि. अस्तु, भानुचेतनी महोदय अग्रिमं करोति वा?
महोदय क्षम्यतां, कुत्र अस्ति?
पेज् सिक्स् महोदय, पेज् सिक्स्, पेज् सिक्स्.
आम् आम् आम्,
नित्य उपयोगीनि वस्तूनि इति, तत्र निधानिका इति अस्ति, तत्
पङ्क्तयानि. आम् आम्,
निधानिका,
तिस्रः निधानिकाः, तिस्रः द्विचक्रिकाः, तिस्रः पाञ्चालिकाः, तिस्रः मापिकाः.
हा समीचीनं महोदय. अस्तु, नरेश महोदय भवान् पठितवान् वा? हा अस्तु, करोतु.
तिस्रः, तिस्रः मालाः, त्रीणि पुष्पा, त्रीणि
तत्र पुष्प, पुष्पाधानि इति एकवचनमेव अस्ति महोदय.
सो तिस्र पुष्पधानि,
तत्र प्रायः नदी, नद्यौ, नद्यः इति,
नद्यः. तिस्र दूरवाण्यः, तिस्र कर्तर्यः.
कर्तर्यः, समीचीनं महोदय. अस्तु समीचीनम्. अस्तु
महोदय, तत्र पुष्पाधानि एकवचनं वा बहुवचनं वा तत्र महोदय, पुनरेकवारं वक्तुं शक्यते?
अहं चिन्तयामि एकवचनम् इति महोदय. पुष्पाणि नास्ति, पुष्पाधानि इति, तत्र एकमेव द्रष्टम् अपि, चित्रे अपि एकमेव दर्शितमस्ति इति.
आम्, तिस्रः पुष्पाधान्यः,
नदी, नद्यौ, नद्यः, ईकारान्तस्त्रीलिङ्गपदम्. समीचीनं वा महोदय?
अस्तु महोदय.
अस्तु अस्तु, कः न उक्तवान् एतावत्पर्यन्तं? हा गीता भगिनी, गीता भगिनी, एतत् पुनः एकवारं प्रथमपङ्क्तिः दर्पणः इति, तत्र इदानीं चत्वारः इति स्वीकरोतु.
चत्वारः दर्पणाः, चत्वारः मञ्चाः, चत्वारः विद्युद्दीपाः, चत्वारः करदीपाः.
हा समीचीनं भगिनि, धन्यवादः. रमाबाय् भगिनी अग्रिमं, मण्डपः इति.
अस्मि महोदय. चत्वारः, चत्वारः मण्डपाः, चतस्र चत्वारि पादत्राणानि, चत्वारि कङ्कतानि, चत्वारि भावचित्राणि.
हा समीचीनं भगिनि. अस्तु, रघुपति महोदय अग्रिमम्.
हा महोदय, सीवनयन्त्रं, चत्वारि सीवनयन्त्राणि, चत्वारि वातायनानि, चतस्रः जवनिकाः, चतस्रः यानपेटिकाः.
समीचीनं महोदय. अस्तु, कः न हर्षिता भगिनी कृतवती वा पुनरेकवारं कर्तुम् इच्छति चेत् करोतु निधानिका इति इदानीं चत्वारि
आम् महोदय चतस्रः निधानिकाः चतस्रः द्विचक्रिकाः चतस्रः पाञ्चालिकाः चतस्रः मापिकाः
हा समीचीनं भगिनि अस्तु अन्तिमम् अस्ति वेणुगोपाल् महोदय अन्तिमं
चतस्रः मालाः चतस्रः पुष्पाधान्याः पुष्पाधान्यः चतस्रः दूरवाण्याः धान्यः
दूरवाण्यः
चतस्रः दूरवाण्यः चतस्रः कर्तर्याः
कर्तर्यः तत्र वयं चिन्तयामः बहुवचनम् इति अत्र दीर्घ अकारः अस्ति इति धामाः इति तादृशम् इति चिन्तयामः किन्तु इकारान्तशब्दः अस्ति अतः तत्र यः इति एव अस्ति कर्तर्यः
कर्तर्याः कर्तर्यः
कर्तर्यः कर्तर्याः न
कर्तर्यः
पुष्पधन्यः किन्तु माला इति तत्र बहुवचनं मालाः मालाः एव अस्तु अस्तु धन्यवादः अस्तु सर्वे इदानीम् अवगच्छन्ति इति मन्ये किञ्चित् अभ्यासम् अपि कृतवन्तः तत्र पुनरेकवारम् एतदेव सर्वे पठामः एकः बालकः एका बालिका एकं फलं तत्र द्वयम् इति अत्र उपयुज्य कृतमस्ति बालकद्वयं बालिकाद्वयं फलद्वयं किन्तु त्रीणि चत्वारि तदेव अत्र महत्त्वपूर्णमस्ति त्रीणि इति पुल्लिङ्गे त्रयः त्रयः बालकाः स्त्रीलिङ्गे तिस्रः बालिकाः नपुंसकलिङ्गे त्रीणि फलानि इति अस्ति चत्वारि अपि रूपं किं पुल्लिङ्गे चत्वारः स्त्रीलिङ्गे चतस्रः नपुंसकलिङ्गे चत्वारि इति तदनन्तरं पञ्च 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 इति एव अस्ति अस्तु तत्र अग्रे सरामः तत्र 19.1 इति यत् अस्ति तत् वंशीसुधा भगिनी तत् पठति वा
आम् महोदय चित्राणां सहायेन रिक्तस्थलानि पूरयन्तु हस्तः यथा सः हस्तेन कार्यं करोति सीवनयन्त्रं सा सीवनयन्त्रेण वस्त्रं सीव्यति
सीव्यति समीचीनं हा समीचीनं भगिनि एतत् रूपं वयं वदामः तृतीया विभक्ति इति रामेण सह गच्छति इति तादृशः प्रयोगः अस्ति अत्र तृतीया विभक्ति अत्र वयम् एतद् प्रयोगः तस्य नाम अस्ति माध्यमम् इति किमपि उपयुज्य कार्यं कुर्मः तत्र हस्तेन किं कार्यं कुर्मः सः हस्तेन कार्यं करोति द्वितीय उदाहरणे किम् अस्ति सः सीवनयन्त्रम् उपयुज्य वस्त्रं सीवयति सीवनयन्त्रं माध्यमम् अस्ति सीवनयन्त्रेण वस्त्रं सीव्यति इति तत्र रूपं दत्तमस्ति वा स्त्रीलिङ्गे न दत्तमस्ति अस्तु अग्रिमपुटे हा सख्या सह इति अस्ति तत्र हा अग्रिमपुटे एकवारं पश्यामः अग्रिमपुटे हा तत्र मेहुल् महोदय तत्र अधोभागे अग्रिमपुटे अधोभागे कोष्टकमस्ति छात्रेण इति तदेकवारं पठतु महोदय
छात्रेण छात्रैः मित्रेण मित्रैः बालिकया बालिकाभिः सख्या सखीभिः।
हा धन्यवादः महोदय। एतदेव रूपमस्ति तृतीयविभक्ति इति वदामः। तत्र प्रयोग द्वयं तत्र वयं कुर्मः, एकं माध्यमम् अन्यत् सः इति। हा तत् वयं पूर्वम् एव दृष्टवन्तः, अनेकाः उक्तवन्तः रामेण सह क्रीडति इति तादृशरूप प्रयोगः। तदेव अग्रिमपुटे अस्ति, किन्तु तत्र पुल्लिङ्गे किमस्ति, छात्रेण मित्रेण एकवचने, छात्रैः मित्रैः इति बहुवचने, बालिकया बालिकाभिः सख्या सखीभिः इति अस्ति। तत्र अस्तु, तत्र अग्रिमं कुर्मः, तदा पश्यामः किं भवति इति। अस्तु, रघुपतिमहोदय अग्रिमं करोति वा लोकयानम् इति?
लोकयानं
तृतीयं
महोदय,
पूर्वपुटे यत्र
लोकयानं,
अग्रिमं
लोकयानं, लोकयानं जनाः
మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు, దయచేసి లైన్ లో ఉండండి.
The person you are speaking with has put your call on hold. Please stay on the line.
आप जिस व्यक्ति से बात कर रहे हैं उसने आपके कॉल।
हां अस्तु महोदय वदतु।
जनाः लोकयानेन प्रयाणं कुर्वन्ति। एषः
ओके अत्र
एषः
लोकयानम् अस्ति, लोकयानेन
यानेन,
हस्तः अस्ति हस्तेन, सीवनयन्त्रम् अस्ति सीवनयन्त्रेण, लोकयानम् अस्ति लोकयानेन प्रयाणं कुर्वन्ति। तत्र माध्यमम् इति वदामः, माध्यमम्। अस्तु, रमाबाई भगिनी अग्रिमम्।
आं महोदय, एषः स्यूतेन वस्तूनि आनयति।
एषः स्यूतेन वस्तूनि आनयति, स्यूतः अस्ति स्यूतेन वस्तूनि आनयति। अत्र किं दृष्टवन्तः वयं, पुल्लिङ्गरूपं दृष्टवन्तः, अपि नपुंसकलिङ्गरूपं दृष्टवन्तः। अस्तु, अग्रे हर्षिता भगिनी, द्विचक्रिका इति।
भारती द्विचक्रिकाया विद्यालयं गच्छति।
तत्र द्विचक्रिका इति अस्ति, द्विचक्रिकया इति रूपं,
द्विचक्रिकया विद्यालयं गच्छति।
अस्तु, तत्र आकारान्तस्त्रीलिङ्गपदमस्ति, तत्र तृतीयविभक्तिरूपम् अस्ति, द्विचक्रिकया। तत्र सीता इति अस्ति चेत् किं भवति?
सीतया।
सीतया, समीचीनं भगिनि। अस्तु, सीता अपि मास्तु इदानीं, सीता अस्ति चेत् सीतया, समीचीनं भगिनि। अस्तु, अग्रे मेहुल् महोदय अग्रिमम्।
कुञ्चिकया,
कुञ्चिका,
एषा कुञ्चिकया तालम् उद्घाटयति।
कुञ्चिका अस्ति, कुञ्चिकया तालम् उद्घाटयति। सर्वे अवगच्छन्ति खलु तत्र वाक्यानि, यानि वाक्यानि सन्ति सर्वे अवगच्छन्ति इति मन्ये। कुञ्चिकया तालम् उद्घाटयति। अस्तु, कः न उक्तवान्? नरेश् महोदय,
कर्तरि सौचिकाः सौचिकः कर्तर्या वस्त्रं कर्तयति।
समीचीनं, कर्तरी अस्ति कर्तर्या इति, नदी नद्या इति, ईकारान्त तत्र बालिका बालिकया इति दृष्टवन्तः, सीता सीतया, द्विचक्रिका द्विचक्रिकया, कुञ्चिका कुञ्चिकया, किन्तु कर्तरी कर्तर्या इति भवति, नदी नद्या इति रूपमस्ति. अस्तु, कः न उक्तवान्? बालचेतनी महोदय वदतु अग्रिमं. दूरवाणी
आपणिकः दूरवाण्या सम्भाषणं करोति.
हा, आपणिकः दूरवाण्या सम्भाषणं करोति. समीचीनं महोदय. अस्तु, वंशीसुता भगिनी अग्रिमं करोति वा? अङ्कनी.
आं महोदय, अङ्कनी बालिका अङ्कन्या चित्रं लिखति.
अङ्कन्या चित्रं
लिखति
लिखति इति. हा, समीचीनम्. अस्तु, एतत् यत् पूर्वपुटे अस्ति तदेव दृष्ट्वा सर्वे एतत् सर्वे कर्तुं शक्नुमः इति मन्ये. हा, युतकम् इति अस्ति, तत्र किं भवति? पूर्वपुटं पश्यामः. युतकं यत् चित्रमस्ति तत्र सर्वे मिलित्वा मिलित्वा एकवारं कुर्मः तत् युतकं. शुनकः. शुनकेन. पिपीलिका. पिपीलिका इति अस्ति, तत्र किं भवति? हा, पिपीलिकया. समीचीनं. हा, गजः.
गजेन महोदय, न
नकार इति मन्ये. हा, नकारः एव इति
दन्तन. ओके,
हा, गजेन. हा,
गजेन.
सिंहः.
सिंहेन.
सिंहेन.
सिंहेन. अस्तु, तत्र धेनुः त्यजामः.
धेनुः
त्यजामः. किन्तु इदानीं मास्तु. हा, हा, मक्षिका.
मक्षिकया.
गर्दभः.
गर्दभेन.
व्याघ्रः.
व्याघ्रेण.
व्याघ्रेण. तत्र अर्धोरुकम्.
अर्धोरुकेन.
माला.
मालया.
मालया. समीचीनम्. उरुकम्.
उरुकेन.
उरुकेन. उरुकेन. हा, गृहगोधिका.
दिकया.
गृहगोधिकया. चोलः.
चोलेन.
चोलेन इति अस्ति, तत्र पुल्लिङ्गशब्दः इति अस्ति, अतः चोलेन इति. चोलेन इति
स्वीकरोति.
हा, तत्र
चोलेन.
चोलः इति
चोली.
किन्तु चोलः चोलः इति पुल्लिङ्गरूपं दत्तमस्ति भगिनि. हा, शाटिका.
शाटिकया.
अस्तु, पादांशुकं.
पादांशुकेन.
पादांशुकेन. हा, शिरस्त्रं.
शिरस्त्रेण.
त्रेण. हा, नकारः तत्र. अन्तर्युतकम्. अन्तर्युतकेन. समीचीनं. हा, अस्तु अस्तु, सर्वे जानन्ति इति मन्ये इदानीं. हा, तत्र माध्यमं किम् उपयुज्य हस्तेन अहं खादामि इति. हा, हस्तेन खादामि. हस्तं खादामि न, हस्तेन खादामि. अस्तु, तदेव रूपम् अग्रिमपुटे अपि भवति, सः इति. अस्तु, तत्र वेणुगोपाल् महोदय अग्रिमपुटे 19.2 अकारः सः इति.
अस्तु, सः पुत्रेण सह पुत्रेण सह आपणं गच्छति. सा सख्या सह विद्यालयं गच्छति.
तत्र सः इति पदस्य उपयोगं किं भवति? सः इत्युक्ते वित्. हा, अस्तु. सः इत्युक्ते वित् इति. हा, सः अपि गच्छति, पुत्रः अपि गच्छति, अतः सः पुत्रेण सह आपणं गच्छति. अस्तु. हा, तत्र परिवर्तनं कर्तुम् इच्छामः चेत् पुत्रः तेन सह आपणं गच्छति इति तदपि वक्तुं शक्नुमः. तत्र सखी तस्या सह विद्यालयं
अन्यं भवति महोदय.
किं महोदय?
सन्दर्भः अन्यं भवति.
आमामां केवलं किञ्चित् हा अहं किञ्चित् परिवर्तनं कर्तुम् इष्टवान् तावत् केवलं कीदृशरूपं भवति इति तद् दर्शितं तावदेव. अस्तु, इदानीं कः वदति? गीता भगिनी, हा, तत्र उदाहरणं दृष्ट्वा इति वदतु.
उदाहरणं दृष्ट्वा तादृशवाक्यानि लिखतु. रामः रावणेन युद्धं कृतवान्. रावणेन सह रावणेन सह युद्धं कृतवान्. लक्ष्मणः रामेण वनं बाणे रामेण
धन्यवादः. अस्तु, रामेण रामः रावणेन सह इति क्षम्यतां, तदेव उदाहरणम् आसीत् खलु. अस्तु अस्तु, क्षम्यतां भगिनि, अग्रिमं करोतु. लक्ष्मणः
लक्ष्मणः रामेण सह वनं गतवान्.
हा, समीचीनं भगिनि. अस्तु, नरेश महोदय.
गोपालः माधवेन सह अभ्यासं करोति.
हा, समीचीनं महोदय. अस्तु, रघुपति महोदय.
अहं मित्रेण सह नाटकं पश्यामि.
हा, समीचीनं महोदय. मेहुल् महोदय.
एषा सीतायाः सह तिष्ठति.
समीचीनं. हर्षिता भगिनी.
सुरेशः भगिन्या सम्भाषणं करोति.
सुरेशः
भगिन्या सह सम्भाषणं करोति.
समीचीनं समीचीनं भगिनी. अस्तु, भानुचेतनी महोदय.
माता
पुत्री अस्ति. नदी नद्या कुञ्चिकया
माता पुत्र्या सह कार्यं करोति.
हा, समीचीनं महोदय. माता पुत्र्या सह कार्यं करोति. ईकारान्त स्त्रीलिङ्गशब्दः. नदी नद्या कुञ्चिका कुञ्चिकया कर्तरी कर्तर्या दूरवाणी दूरवाण्या अङ्कनी अङ्कन्या इति. अस्तु, रमाबाई भगिनी.
आं महोदय. अध्यापकः छात्रेण सह प्रवासार्थं गतवान्.
समीचीनं.
बहुवचनमस्ति,
धन्यवादः.
छात्रैः सह
प्रवासार्थं
गतवान्.
हा, समीचीनं समीचीनं.
महोदय, प्रवासार्थम् इत्युक्ते किं महोदय?
हा, प्रवासः इति भवती जानाति वा? प्रवासः टूर् इति. प्रयाणं प्रवासः इति. तत् कर्तुं गतवान्, प्रवासं कर्तुं गतवान् अध्यापकः. अस्तु, वंशीसुधा भगिनी, अग्रिमम्.
लता सखीभिः क्रीडति.
सः
सख्यः सखी सख्यो सख्यः
सख्यः बहुवचनरूपं. लता सखीभिः क्रीडति.
सखीभिः तदनन्तरं
क्रीडति क्रीडति.
न सखीभिः रूपं तु समीचीनं, किन्तु
लता सखीभिः सह क्रीडति.
हा, इदानीं सम्यक्. हा, अस्तु.
सः एव इत्युक्ते अहं मनुष्य एव अस्ति चेत् वदामि महोदय.
मनुष्य इत्युक्ते एतत् सः इति
इदानीं बालिका अङ्कन्या सह चित्रं लिखति सः न इदानीमेव वक्तुं न शक्यते महोदय.
अङ्कन्या
सः चित्रं लिखति अङ्कन्या सह यदि जनाः अस्ति चेत्
ओ अस्तु 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 तद् अपि भवितुम् अर्हति इति मन्ये भगिनि. तत्र केवलं पुरुषः इति नास्ति इति चिन्तयामि. अत्र उदाहरणानि सर्वं तादृशानि सन्ति किन्तु सः इति कन्दुकेन सह क्रीडामि इति तद् भवति. अतः पुरुषः एव इति न सः इति तत् अत्र उदाहरणं तादृशम् अस्ति किन्तु तत्र नियमः किमपि नास्ति. अस्तु अस्तु तत्र अग्रिमं कः एतत् पर्यन्तं न उक्तवान् सर्वे उक्तवन्तः इति मन्ये. शोभा भगिनी भवती अग्रिमभागं पठितुम् इच्छति वा? आकारः
19.2 एतेषु वाक्येषु पदानि
महोदय एतत् एतानि सर्वाणि वाक्यानि वयं सर्वे बहुवचनानि करिष्यन्ति वा?
अस्तु अस्तु एकनिमिष पश्यामः. रामः माधवः अस्तु अस्तु महोदय एकम् एतत् कृत्वा पुनरागच्छामः. एतत् अग्रिमं यत् शोभा भगिनी पठति तत् कृत्वा पुनरेकवारं सर्वं बहुवचने कुर्मः. अस्तु समीचीनं योजना योजनं समीचीनमेव अस्ति. अस्तु शोभा भगिनी
महोदय एतेषु वाक्येषु पदानि अव्यवस्थितानि सन्ति तानि व्यवस्थितानि लिखतु. यथा करोति सः दिनेशः मित्रैः प्रतिदिनम् अभ्यासम् व्यवस्थितानि अस्ति दिनेशः प्रतिदिनं मित्रैः सह अभ्यासं करोति.
अव्यवस्थितानि इति पदानि अव्यवस्थितानि तत्र इदानीं व्यवस्थितं कृत्वा वाक्यं दिनेशः प्रतिदिनं मित्रैः सह अभ्यासं करोति. तत्र द्वितीयमपि कर्तुम् इच्छति वा भगिनि?
प्रयत्नं करोमि महोदय. आगतवान् सः कः भवता? भवता कः?
तत्र भवता इति तृतीयविभक्तिः अस्ति भगिनि.
भवता सह कः आगतवान्?
हा समीचीनं भगिनि हा समीचीनं तावदेव हा समीचीनं हा धन्यवादः. अस्तु वेणुगोपाल् महोदय अग्रिमं करोति वा?
कलहं सः 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 करोति सर्वैः. कलहं सः सर्वैः सः कलहं सर्वैः सः करोति कलहं करोति.
तत्र अत्र किं चिन्तनीयमस्ति? कोऽपि वदति वा तत्र क्रियापदं किम् इति प्रथमं द्रष्टव्यमस्ति. तत्र क्रियापदं किम् अस्ति?
करोति
करोति तद् तद् दृष्ट्वा वयं किं वक्तुं शक्नुमः? कर्तृपदं किम् अस्ति तत्र?
सः
सः इति सः करोति. सः किमपि करोति. सः किं करोति? सः कलहं
कलहं करोति.
सः कलहं करोति. तदनन्तरं सः सर्वैः
सर्वैः सह
सर्वैः कलहं करोति इति. यदि तादृशं चिन्तनं भवति सुलभं भवति. अस्तु अस्तु, अग्रिमं गीता भगिनी, अग्रिमम्
आगच्छामि वा अहम् अपि सह भवत्या. अहम् आगच्छामि क्रियापदम्, अहं कर्तृपदम्. अहम् आगच्छामि, अहं भवत्या सह, अहं भवत्या सह बि आगच्छामि वा.
तत्र भगिनि सर्वं
अहमपि अहमपि भवत्या सह अहमपि भवत्या सह
आगच्छामि. गीता भगिनी न श्रूयते, एकवारं वदतु.
अहम् अपि भवत्या सह आगच्छामि वा.
हा समीचीनं, समीचीनं भगिनि. अस्तु, तत्र अहम् आगच्छामि, तदनन्तरं प्रश्नवाचकः अस्ति वा इति. अहम् आगच्छामि वा, अहम् अपि भवत्या सह आगच्छामि वा इति. समीचीनं भगिनि. अस्तु,
इदानीं वाक्ये महोदय अहं मकारः अस्ति, तदनन्तरम् अहं सूचयति, स्वराः आगच्छति.
हा तदपि समीचीनमस्ति. हा सत्यं भगिनि, हा सत्यं. अहम् अपि, अपि अस्ति, अहम् अपि भवत्या सह आगच्छामि वा इति. हा समीचीनं भगिनि, तत्र मकारः अस्ति, अनुस्वारः नास्ति इति. तत् सत्यम्. अस्तु, अग्रिमं
युद्धं सैनिकः सह करोति शत्रुभिः. सैनिकः शत्रुभिः सह युद्धं करोति.
हा समीचीनं महोदय. सैनिकः करोति, सैनिकः किं करोति, सैनिकः युद्धं करोति. केन सह सैनिकः युद्धं करोति? सैनिकः शत्रुभिः युद्धं, शत्रुभिः सह युद्धं करोति. हा समीचीनं महोदय. अस्तु, रघुपति महोदय अग्रिमम्.
आं महोदय. करोति वैद्यः सह रोगिभिः सम्भाषणं. करोति वैद्यः, वैद्यः सम्भाषणं करोति. वैद्यः रोगिभिः सह सम्भाषणं करोति.
हा समीचीनं महोदय. हा अस्तु, मेहुल् महोदय अग्रिमम्.
अस्तु महोदय. ललिता सह कृतवती चर्चाम् अध्यापिकाभिः. ललित अध्यापिकाभिः सह चर्चां कृतवती.
ललिता
अध्यापिकाभिः सह चर्चां कृतवती.
चर्चां कृतवती, समीचीनं महोदय. अस्तु, धन्यवादः. अस्तु, हा इदानीं यत् भानुचेतिनी महोदय उक्तवान् तदेव. अस्तु भानुचेतिनी महोदय, भवान् एव तद् तत्र करोतु, प्रथमं द्वितीयं च. भानुचेतनी महोदय अस्ति वा? अस्तु, भानुचेतनी महोदय अस्ति वा? अस्तु, नास्ति इति मन्ये, न श्रूयते.
महोदय भग्नः, सम्पर्कः भग्नः.
अस्तु, हा तत् यत् भवान् सूचितवान् तत् पूर्व अभ्यासं तत् बहुवचने कर्तुं प्रयत्नं कुर्मः इति. अस्तु, तत्र प्रथमं द्वितीयं करोतु.
रामः रावणैः युद्धं कृतवान्.
सः रावणैः सह इति,
लक्ष्मण रावणैः सह युद्धं कृतवान्. लक्ष्मणः रामैः सह वनं गतवान्.
समीचीनं महोदय. अस्तु, हा अग्रे हर्षिता भगिनी अग्रिमं करोति वा?
गोपालः माधवैः सह अभ्यासं करोति.
हा समीचीनं भगिनि. हा रमाभाय भगिनी अग्रिमम्.
अहं मित्रेण सह नाटकं पश्यामि.
हा तत् एकवचने मित्रम् एकवचने अस्ति. इदानीं मित्राणि इति इदानीं बहुवचनं.
मित्रैः सह नाटकं पश्यामि.
समीचीनं भगिनि. हा वंशी सदा भगिनी अग्रिमम्.
एषा सीताभिः सह तिष्ठति.
हा समीचीनं भगिनि. अस्तु शोभा भगिनी वक्तुम् इच्छति वा अग्रिमं? तत्र भगिनी इति अस्ति
भगिनी.
भगिनीभिः इति मन्ये.
आं महोदय. नदी नद्या नदीभ्यां नदीभिः. सुरेशः भगिनीभिः सह सम्भाषणं करोति.
समीचीनम्. अस्तु वेणुगोपाल् महोदय. अस्तु वेणुगोपाल् महोदय नास्ति इति मन्ये. अस्तु गीता भगिनी.
माता पुत्रीभिः कार्यं करोति.
हा समीचीनं.
पुत्रीभिः न माता पुत्रीभिः सह कार्यं करोति.
सत्यं भगिनि धन्यवादः. हा पुत्रीभिः सह. अस्तु हा धन्यवादः. नरेश् महोदय अग्रिमम्.
अध्यापकः छात्रैः सह प्रवासार्थं गतवान्.
हा समीचीनं. हा रघुपति महोदय अग्रिमम्.
लताः सखिभिः सह क्रीडन्ति.
हा अस्तु द्वयमपि बहुवचनरूपम्. अस्तु अस्तु लताः सखीभिः
क्रीडति लता.
अतः लताः इति सः
लता एकवचनमस्ति क्रीडति.
आमामाम् अस्ति. किन्तु रघुपतिमहोदय भवान् किम् उक्तवान्?
लताः.
रघुपतिमहोदय भवान् किम् उक्तवान्?
लताः सखिभिः सह क्रीडन्ति.
हा तत्र द्वयमपि सः परिवर्तनं कृतमासीत्. हा अस्तु तत्र एतत् सः इति तृतीयविभक्तिरूपं तत्र सः अपि अन्यप्रयोगः वयं दृष्टवन्तः तद् माध्यमम् इति. अस्तु तत्र विना
one thing I didn't understand. Sakhyah sakhya sakhya sakhi bhihi. Ninth is a sakhyah, so that also becomes sakhi bhihi. Mahodaya
sakhi bhihi. Aam satyam.
Sakhyah and sakhya, both of them.
Tatra sakhyah. Ha tatra so there लता इति अस्ति तत्र स्त्रीलिङ्गरूपम् इति चिन्तयामः तत्र. अतः सख्यः सख्यः स्त्रीलिङ्ग बहुवचनरूपम् अस्ति.
ओके महोदय.
तत्र
सख्यः बहुवचनं
किं
सखी
नदी नद्यौ नद्यः
सखी सख्यः.
अतः तत्र नदी नद्यौ नद्यः सखी सख्यौ सख्यः बहुवचने अस्ति सख्यः. तत्र तृतीया विभक्तिः अस्ति सख्या एकवचने बहुवचने सखीभिः इति अस्ति. शोभा भगिनी तत्र
अवगच्छामि महोदय.
तत्र बहुवचनरूपमेव दत्तमस्ति. अतः एव अहं चिन्तयामि रघुपतिमहोदय लता इति तस्य परिवर्तनं कृतवान् इति वा महोदय. अस्तु अस्तु. धन्यवादः. इदानीं स्पष्टमस्ति तत्र किं रूपम् अस्ति इति. अस्तु तत्र विना इति इदानीं तदपि पश्यामः. तत्र अत्र उदाहरणं दृष्ट्वा तत्र अस्तु कः मेहुल् महोदय तत्र विना इति तत् वदति वा तत् किमस्ति तत्र उदाहरणम् इति
विना कुत्र अस्ति
अग्रिमपुटे महोदय अग्रिमपुटे 19.3
उदाहरणं दृष्ट्वा अन्यवाक्यानि लिखतु जीवनं कठिनं जलं विना मीनः न जीवति इत्येतं वायुं विना जीवनं कठिनं वायुः विना
वायुः उदाहरणं तत् तत्र किं दत्तमस्ति न दत्तमस्ति खलु तत्र
न दत्तमस्ति महोदय अत्र उदाहरणं विना दृष्ट्वा
समीचीनमस्ति भगिनि उदाहरणं विना अभ्यासं करोतु तत्र एकं वक्तुम् इच्छामि तत्र विना इति प्रयोगे तत्र तृतीयाविभक्तिरूपं सम्यक् अस्ति अपि द्वितीयाविभक्तिरूपं सम्यक् अस्ति तत्र जलं विना जीवनं कष्टम् अथवा जलेन विना जीवनं कठिनं तद् द्वयमपि साधु एव तत्र तृतीया अथवा द्वितीया द्वयमपि वयं कर्तुं शक्नुमः तत्र अस्तु तत् तदेव अस्ति प्रायशः अग्रिमवर्गे वयम् अन्यानि उदाहरणानि पश्यामः विना इति तत्र केवलं त्रयमेव दत्तमस्ति अग्रिमवर्गे वयं किञ्चित् अधिकं अभ्यासं कुर्मः तत्र एतत् पर्याप्तं न भवति अस्तु
महोदय विना पञ्चम्या पञ्चमी विभक्ति एव शक्यते महोदय
जलात् विना द्रष्टव्यं भगिनि
जलात् विना
प्रायशः तद्
द्वितीया
तृतीया तु सत्यमस्ति
द्वितीया तृतीया पञ्चमी अपि भवति
अस्तु जलात् विना अस्तु गीतासोपाने एतत् दृश्यामः यत् अत्र दत्तमस्ति तदेव अहं स्वीकृत्य कर्तुम् इच्छामि तावदेव किञ्चित् गीतासोपाने सर्वे सर्वम् आगच्छति
अहं चिन्तयामि किञ्चित्
सत्यं सत्यम् चिन्ता मास्तु सम्यक् प्रश्नः सम्यक् एव अस्ति अस्तु
सोपानेन गच्छामः
अन्यप्रश्नः अस्ति वा सः अपि हस्तेन माध्यमम् इति अथवा अद्य अद्यतनविषये किम् एकं द्वे त्रीणि चत्वारि इति तस्मिन् विषये कोऽपि प्रश्नः अस्ति वा अस्तु अस्तु समीचीनमस्ति सर्व सर्वेभ्यो नमस्कारः अग्रिमवर्गे मिलामः अग्रिमसप्ताहे
धन्यवादः महोदय
बहु धन्यवादः महोदय
धन्यवादः
शुभरात्रिः
धन्यवादः
धन्यवादः